एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षश्च केपी शर्मा ओली लोकतन्त्रस्य विदेश शासनस्य च दुर्बल कारकान् गतिविधिन् न कर्तुम् राजनैतिक दलानि अनुरोध दि। अखिल महिला संघेन गतदिने काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली लोकतान्त्रिक गणतन्त्रस्य संसदीय व्यवस्थायाः विदेश शासनस्य च दुर्बल कारकान् गतिविधिन् न कर्तुम् अनुरोध। प्रधानमन्त्री ओली राजनैतिक दलानां गतिविधयः गतिविधिभिः निर्वाचनायोग न्यायालय प्रवृत्ति संस्थानां कार्येषु अवरोध सर्जनात् लोकतन्त्रस्य दुर्बलीकरणस्य अवस्था उत्पन्ना स्थिति अवदत्। प्रधानमन्त्री ओली राष्ट्रपतेः सर्वे निर्णयाः कार्याणि च नेपालस्य प्रचलित विधेः अनुसारेण प्रधानमन्त्रिणः मन्त्रिपरिषदो वा परामर्शेन सम्पन्नानि सन्ति इति हेतोः तत्र उत्थितान् सर्वान् प्रश्नान् उत्तरयितुम् आत्मनः तत्परा स्थिति अभासत। प्रधानमन्त्री ओली अगदत् दलस्य अभ्यन्तरे केवलं विरोधकारिणां कार्येषु अवरोध सर्जकानां च गतिविधीनां कारणैः दण्डनेन बहिर्निष्कासनस्य अवस्थायां कतिचित् व्यक्तयः स्वयं निष्क्रम्य गताः इति हेतोः अतपरं दलमपि निर्वादम् अग्रे वर्धिष्यते। सर्वकारः तात्कालिकेन नेकपा माओवादिना संचालितस्य सशस्त्र विद्रोहस्य सर्वेषां योद्धॄणां आहतानां च जनानां यथोचितं सम्मान व्यवस्थापने विदधातीति ब्रुवन्। प्रधानमन्त्री ओली विगतस्य घटनां संलग्नतां च आधृत्य विचलनेन विना ऐक्य भवितुम् सर्वान् कार्यकर्तृन् अनुरुणत्। प्रतिनिधि सभायाः विघटनस्य विरूद्धे पञ्जीकारितेषु आदेशाभियाचन निवेदनेषु ह्यो विमर्शनस्य असमाप्तिमनु विमर्शनस्य क्रमे एव अद्य पुनः श्रवणं विधीयते। प्रधान न्यायाधीशस्य चोलेन्द्र शमशे जबरा इत्यस्य नेतृत्वस्य सांविधानिक न्यायपीठे ह्यस्तन दिवसात् आदेशाभियाचन निवेदनेषु याचनायाः स्वत्व ज्ञापनस्य च श्रवणं प्रारब्धं वर्तते। आदेशाभियाचन निवेदनानां पक्षतः विमृशन्तः अधिवक्तारः सन्तोष भण्डारी गिरिराज भट्टः भीमार्जुन आचार्यः सुनील पोखरेलश्च संसदीय प्रक्रियातः सांविधानिक व्यवस्थातश्च बहिर्गत्वा प्रधानमन्त्रिणः संसद विघटनस्य कार्यम् असांविधानिकमस्तीति तर्कयन्तः निवेदकानां याचनायाः अनुसारेण संसदः पुनस्थापनम् अभ्ययाचन्त। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रचण्ड नेपाल समूहस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः प्रतिनिधिसभायाः दलस्य आधिकारिकतायाश्च विषये न्यायालयं निर्वाचनायोगञ्च प्रति स्वीय विश्वासो स्थिति गदति। ह्य काष्ठमण्डपे आयोजिताम् अनेरा स्वव्यु संघटनस्य उपत्यका स्तरीयां मेलां सम्बोधयन् अध्यक्षः प्रचण्डः न्यायालयेन निर्वाचनायोगेन च सह सर्वाधिकं जनतायां विश्वासो स्थिति न्यगदत्। कार्यक्रमे वरिष्ठ नेता झलनाथ खनालः सर्वोच्च न्यायालयेन निर्वाचनायोगेन च स्वविवेकस्य अपेक्षया विधिनां संविधानस्य च आधारेण निर्णेष्यते इति विश्वासं व्यक्तवान्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रचण्ड नेपाल समूहस्य अध्यक्ष माधव कुमार नेपालः भाषते भूयो भूय संसदः विघटनस्य विकृतिं रोद्धुमेव संविधाने प्रधानमन्त्रिणा प्रतिनिधिसभायाः विघटनं कर्तुं न शक्यते इति व्यवस्था स्थापिता अस्ति। बर्दिया जनपदस्य गुलरिया स्थाने ह्यः आयोजिते अग्रणी कार्यकर्तृ प्रशिक्षण कार्यक्रमे अध्यक्षो नेपालः प्रतिनिधिसभायाः विघटनात् संविधानस्य जनमतस्य च अपमानः सम्भूतोऽस्तीति विचारं व्यक्तवान्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः वदति लोकतन्त्रस्य संरक्षणाय सर्वैः एकी भवनीयम्। नेपाली कांग्रेस दलस्य चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रेण ह्य आयोजिताम् प्रजातन्त्र सेनान्यः कांग्रेस दलस्य पूर्व क्षेत्रीय सभापतेः भक्तिप्रसाद तिमलसिन्हाभिदस्य श्रद्धाञ्जलि सभां सम्बोधयन् वरिष्ठ नेता पौडेलः सर्वेषाम् एकी भवनेन क्रियाशीलतया चैव लोकतन्त्रं संविधानञ्च रक्षितुं शक्यते इति विचारं व्यक्तवान्। प्रमुख निर्वाचन आयुक्तेन दिनेश कुमार थपलिया विधेन प्रतिनिधिसभायाः सदस्यानां निर्वाचनाय समन्वय सहयोगौ विधातुं राजनैतिक दलानि अनुरुद्धानि सन्ति। आगामी विक्रमवर्षीयस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य सन्दर्भे संसदि प्रदेशसभासु च प्रतिनिधित्वं कुर्वद्भिः राजनैतिक दलैः सह ह्यः सम्पन्ने परामर्शोपवेशे प्रमुख निर्वाचन आयुक्तः थपलिया प्रादेशिकानि जनपदस्तरीयाणि स्थानीय स्तरीयाणि च भातृ संघटनानि सक्रिय सहभागितायै निर्देष्टुं राजनैतिक दलानि अन्वरुणत्। गृह मन्त्रालयस्य सचिव महेश्वर न्यौपाने निर्वाचन सुरक्षाया पूर्व कार्याय आवश्यक गृह कार्यम् प्रारब्धम् सुर्खेत जनपदेन सह सम्पृक्त सीमानाम् पञ्चानाम् जनपदानाम् प्रमुख जनपदाधिकारिण सुरक्षा निकायानाम् प्रमुखांश्च निर्दिशति। गतदिने सुर्खेत जनपदस्य वीरेन्द्रनगरे सम्पन्ने अन्तर जनपद सुरक्षा समन्वय समितेः उपवेशे गृह सचिव न्यौपाने एवं निरदिशत्। प्रधानमन्त्रिणः विशेषार्थिक परामर्शदातरी पूर्व राज्यमन्त्री मोतीलाल दुगड नियुक्तो वर्तते। प्रधानमन्त्रिणः परामर्श मन्त्री परिषदा ह्य असौ नियुक्तोऽस्ति। परामर्शदाता दुगड सो मंगलवासरात् सिंहप्रासादे कार्यभारम् बोढा। असौ पूर्ववर्तिनः विशेषार्थिक परामर्शदातुः डाक्टर युवराज खतिवडा वीरस्य स्थाने नियुक्तो वर्तते। कोरोना संक्रान्तानां व्यक्तिनां कृते कोरोना विषाणोः विरुद्धस्य टीकाकरणाय आवश्यक कार्यं विद्यमानमस्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। मन्त्रालयस्य ह्यस्तने संचार संक्षेप कार्यक्रमे प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः सर्वकारात् आकस्मिक प्रयोगाय स्वीकृतस्य टीकाकरणस्य क्रयणं प्राथमिकतायां संस्थाप्य अत्यावश्यक व्यक्तिनां टीकाकरणं कर्तुम् आवश्यक कार्याणि विधीयमानानि सन्ति इति अज्ञापयत्। प्रवक्ता डा गौतमः निःशुल्कं टीकाकरणस्य अभियानं संचालयितुं प्रक्रिया अग्रे वर्धापिता सन्ति ज्ञापयन् सर्वकारस्य प्रयास औपचारिकेण अनौपचारिकेण च रूपेण सहयोगाय इच्छुकानां जनानां कृते सार्वजनिकं सूचनावहनं विहितं वर्तते इत्यभासत।